द्विगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नो दिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुतते नमः यात इषु शिवतमा शिवम् बभूव ते धनुः शिवाशरव्यायातवत या नो रुद्रमृडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजाकशी यामिषम् गिरिशन्तहस्तेऽभिपश्यस्तभे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचददि वक्त्रा प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असो यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रिता सहस्रशो वैशागुम् हेडहीमहे असव्यो वसत्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्ज धन्वनस्त्वमुभयोरार्त्रियोर्जाम् यास्य देहस्त इषवः परादा भगवो वप अवदत्यधनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्याणामुका शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आभुरस्य निषङ्गतिः या देहे दर्मे दुष्टमहस्ते बभूव ते धनुः तयास्मान्विश्वतस्त्वम यक्ष्मया परिभुज नमस्ते अस्त्वायुधाया नादताय दृष्टवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकाराय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये ಸರ್ವೇಷಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸ್ವಸ್ತಿಂ ಜನಾಯ ಕೃಷಿಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭ್ಲುಷಾಯ ವಿವ್ಯಾಧಿನೇ ನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತತಾವಿನೇ ಕ್ಷೇತ್ರಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ದೋಷಾಯ ಗ್ರಂಥಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕೃತ್ಸವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷುಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೇ ಪರಿವಂಚತೇ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೃಗಾವ್ಯಭ್ಯೋ ಜಿಗಾಗುಂ ಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರದ್ಭ್ಯ ಪ್ರಕೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಇಷು ಮದ್ಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಸ್ಯಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯಶ್ಚಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಿಷ್ಟಭ್ಯೋ ದಾವಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮ ಆವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಭ್ರಾತೇಭ್ಯೋ ಭ್ರಾತಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಶುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ತಕ್ಷದ್ಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಇಷುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ श्वभ्यश्वपदेभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रभृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सदस्याय च नमो नाद्याय च वैषन्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः काम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवधराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः इरिण्याय च प्रपत्याय च नमः किगुंशिराय च क्षयणाय च नमः ಕಪರ್ದಿನೆ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಭ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಹ್ವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಷ್ಟ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚ ಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ಮ್ಯಾಯ ಚ ಸೌರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಚದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚ ವಿಘ್ನತೆ ಚ ನಮಃ ಆಖ್ಯದತೆ ಚ ಪ್ರಖ್ಯದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೇಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವಕ್ಕೇಭ್ಯೋ ನಮಃ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮಃ ಆಮೀವಕ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪತೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋ ಮೋಗೇಷಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೆ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೆ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತಮಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿದೇ ಮತೇ ಯಚ್ಚಂ ಜಯೋಶ್ಚಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮತವರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತಮಾನ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂದಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶುರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ವದೇರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇ ಮತೇ ಆರಾತ್ರೇ ಗೋಗ್ನಮುತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾ ಜನೋ ಅಧಿಚ ದೇವ ಬ್ರೂಯಥಾ ಜನ ಶರ್ಮ ಯಚ್ಚ ದ್ವಿಪರುಹಾ ಸುಹಿ ಶ್ರುತಂಗತ್ತಸದಂ ಯುಗಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ರುಭುಗ್ರಂ ಮೃಡಾ ಜ ಹೃದ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತರ್ವಣತ್ವ ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಘಾಯೋ ಅವಸ್ಥಿರಾ ಮಗವದ್ವ್ಯಸ್ತನುಷ್ವಮೀಡಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮಶಿವತಮಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾನ ಮಾಚರ ಪಿನಾಕಂ ಬಿಭ್ರಧಾಗಹೇ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ದಾಹ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರಾ ಅಧಿಭೂಮ್ಯಾಂ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವದನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಗೇಂದರಿಕ್ಷೇ ಭವ ಅಧೀ नीलग्रीवा शितिकण्ठा शर्वा अधः क्षमाचरा नीलग्रीवा शितिकण्ठा दिवगुं रुद्रा उपश्रिता ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिपतो जनान् ये पथाम् पतिरक्षय ऐलभृतायव्युदः ये तीर्थाणि प्रचलन्ति सृकावन्तो निषङ्गिणः येतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वदन्मानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिव्ये शामन्नम् वातो वरुषमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रते चेर्दशो दे चेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्वर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तरः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यत्सशस्सु तन्मायो विश्वस्य क्षयति वेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः
अग्नाविष्णो सजोषसे मा वर्धन्तु भाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वलिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धं च मे वृद्धश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विशश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपदं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे घृतश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुधिरं च मे ऊर्च्छ मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च महौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेनं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मथुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टभक्षं च मे कृष्टभक्षं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे
ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హారియోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే తృష్ణీయాశ్చ మే సృచశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మ ఆధవణీయశ్చ మ ఆగ్నేయఘ్నం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచదాశ్చ మే బభృదశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ధర్మశ్చ మే కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామృక్చ మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్భృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాక్ష మే దిత్యౌహీ చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్ష మే తుర్యౌహీ చ మే పష్ఠవాక్ష మే పష్ఠౌహీ చ మ ఉక్షా చ మే వశా చ మ ఋషభశ్చ మే వేహం చ మే నడ్వాం చ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే త్రిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే శౌచ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే షావిగుంశతిశ్చ మే त्रिगुंषच्च मे षट्त्रिगुंषच्च मे चत्वारिगुंषच्च मे चतुश्चत्वारिगुंषच्च मे षाचत्वारिगुंषच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्द्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मरुर्यज्ञनिर्बृहस्पतिरुक्था मदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमा सर्वा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासकुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाये पितरोऽनुमदन्तु शान्ति शान्ति शान्तिः ॐ तच्छयो रावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद् सभूमिम् विश्वतो वृत्त्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वन्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धभिः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अभग्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् मृषदाज्यम् पशुगुस्तागश्चक्रे वायव्यान् आरण्याग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋजस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं यददुः कतिदाव्यकल्पयन् मुखं किमस्य कौ बाहु का गुरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरुतदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन्यदासे धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवा तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवा अद्भ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजालमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीणाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे रेष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मणिषाणा अहम् मणिषाणा सर्वम् मणिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शम् चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणाहतः कृमीणागुम् राजा अप्येषागस्थपतिर्हतः अधो माताधो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशादिका हता श्वेताभिस्सह सर्वे हता आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् कण्ठन्व्रसे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रश्चं वरुणः शन्नो भवत्वर्यमा शन्नगिन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतो तद्भक्तारमवतो अवतु माम् अवतु भक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तक्षेक्षाध्यायः सहनौ व्यजः सहनौ ब्रह्मवर्चसम् अधादस्य गुंहिताय उपनिषदम् व्याकाख्यास्यामः पञ्चत्वधिकरणेषु अधिलोकमधिज्यौदिशमधिविद्यमधि प्रजमध्यात्मम् तामहासगुंहितागित्या चक्षते अधादिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशसन्धिः वायुःसन्धानम् इत्यधिलोकम् अधादिज्यौदिशम् अग्निपोर्वरूपम् आदित्यवुत्तररूपम् आपःसन्धिः वैद्युतःसन्धानम् इत्यधिज्यौदिशम् अधादिविद्यम् आचार्यपोर्वरूपम् अन्ते वास्युत्तररूपम् विद्यासन्धिः प्रवचनगुं सन्धानम् इत्यधिविद्यम् अधाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुं सन्धानम् इत्यधिप्रजम् अदाध्यात्मम् अधराहनुपूर्वरूपम् उत्तरागनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः यगेव मेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृताकात्सं बभूव समेन्द्रो मेधयाकास्पृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विदर्शनम् जिह्वा मे मधुमत्तमा कर्णाकाभ्याम् भूरि विश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय आवहन्ति वितन्वाना कुर्वाणा चेरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह गोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा क्षमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वस्य शोषा निःस्वाहा तन्त्वाभगः प्रविशा निःस्वाहा समाभगः प्रविश स्वाहा तस्मिन् सहस्रशागे निभगाहम् त्वयि मृजे स्वाहा यथा पः प्रवतायन्ते यथा मासाकः जलम् एवम् माम् ब्रह्मचारिणः दातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाबाहि प्रमापद्यस्व भोर्भुवः सुपरिदिवा येतास्तिस्रो व्याहृदयः तासामुहस्मैताम् चतुर्थे माहाजमस्य प्रवेदयते महगिते तद्ब्रह्मा स आत्मा अङ्गाकान्यन्ना देवताकाः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुभरित्यसो लोकः मह इत्यादित्यः आदित्येन वाप सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुभरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाप सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुभरिति यजोगुंषे महगिति ब्रह्मा ब्रह्मणा वाप सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुवगित्यपानः सुभरिति व्यानः महगित्यन्नम् अन्नेन वाप सर्वे के प्राणा महीयन्ते तावागेताश्चतस्रश्चतुर्थाः चतस्रश्चतस्रो व्याहृदयः तायो वेद स वेद ब्रह्म सर्वेऽस्मै देवा बलिमावहन्ति सगगेशोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो किरण्मयः अन्तरे नतालुके यगेशस्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ गेशान्तोऽभ्यवर्तते व्यपोक्यशेषकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायो सुभरित्यादित्ये महगिति ब्रह्मणि आप्नोति स्वराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीन योग्योपासास्व पृथिव्यन्तरिक्षम् द्योर्दिशोपान्तरदिशाः అగ్నిర్వాయురాదిత్యశ్చంద్రమానక్షత్రాణి ఆప ఓషధయో వనస్పతయ ఆకాశ ఆత్మా ఇత్యదిభూతం అదాధ్యాత్మం ప్రాణోద్యానోపాన ఉదానః సమానః చక్షుశ్రోత్రం మనోవాక్వగ్ చర్మ మాగుంధగ్గస్తావాస్థిమజ్జ ఏతదధిభిధాయ ఋషిరవోచత్ పాంతం పాహిదగుం సర్వం పాంతేనైవ పాంతగ్గస్పృణోతేతే ఓమితి బ్రహ్మ ఓమితేదగుం సర్వం ఓమిత్యేతదనుకృతిః స్మః అప్యోశ్రావయేత్యాశ్రావయంతే ఓమితి సామాని గాయంతే ఓగుం సోమితి శస్త్రాణి జగుంసంతే ఓమిత్యధ్వర్యః ప్రతిగరం ప్రతిగృహాతే ఓమితి బ్రహ్మా ప్రసూతే ఓమిత్యగ్నిహోత్రమనుజానాతే ఓమితి బ్రాహ్మణ ప్రవక్షన్నాః బ్రహ్మోపాకాప్నవానీతే బ్రహ్మైవోపాప్నోతే ఋతం చ స్వాధ్యాయ ప్రవచనే చ సత్యం చ స్వాధ్యాయ ప్రవచనే చ తపశ్చ స్వాధ్యాయ ప్రవచనే చ దమశ్చ స్వాధ్యాయ ప్రవచనే చ చమశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నయశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నిహోత్రం చ స్వాధ్యాయ ప్రవచనే చ అదిధయశ్చ స్వాధ్యాయ ప్రవచనే చ మానుషం చ స్వాధ్యాయ ప్రవచనే చ ప్రజా చ స్వాధ్యాయ ప్రవచనే చ ప్రజనశ్చ స్వాధ్యాయ ప్రవచనే చ ప్రజాతిశ్చ స్వాధ్యాయ ప్రవచనే చ సత్యమిది సత్యవచారాధీతరః తప ఇది తపో నిత్యః పౌరుసృష్టిః స్వాధ్యాయ ప్రవచనే హే వేది నాగో మౌద్గల్యః తద్ధి తపస్తద్ధి తపః అహం వృక్షస్య రేరివ కీర్తి పృష్టం గిరేరివ ఉద్భవపిత్రో వాజినీవ స్వమృతమస్మి ద్రవిణగుం సవచ్చసం సుమేధా అమృతోక్షితః ఇది త్రిశంగో వేదానువచనం వేదమనూచ్యాచార్యోందే వాసినమనుశాస్తి సత్యం వద ధర్మం చర స్వాధ్యాయాన్మా ప్రమదః ఆచార్యాయ ప్రియం ధనమాహృత్య ప్రజాతంతుం మా వ్యవచ్ఛేత్సేః సత్యాన్న ప్రమదితవ్యం ధర్మాన్న ప్రమదితవ్యం కుశలాన్న ప్రమదితవ్యం భూత్యైన ప్రమదితవ్యం స్వాధ్యాయ ప్రవచనాభ్యాం ప్రమదితవ్యం దేవపితృకార్యాభ్యాం ప్రమదితవ్యం మాతృదేవో భవ పితృదేవో భవ ఆచార్యదేవో భవ అతిథిదేవో భవ యాన్యనవద్యాని కర్మాణి తాని సేవితవ్యాని నోగితరాణి యాన్యస్మాగగుం సుచరితాని తాని త్వయోపాస్యాని నోగితరాణి ఏకే చాస్మచ్చ్రేయాగుం సో బ్రాహ్మణాః తేషాం త్వయాసనేన ప్రశ్వసితవ్యం శ్రద్ధయా దేయం అశ్రద్ధయా దేయం శ్రియా దేయం ప్రియా దేయం భియా దేయం సంవిదా దేయం అధయతి తే కర్మ విచికిత్సా వా వృత్త విచికిత్సా వా స్యాత్ ఏతత్ర బ్రాహ్మణానా సమ్మర్షిణః యుక్తా ఆయుక్తాః అలోక్షా ధర్మకామాస్యుః యథా తే తత్ర వర్తేరన్ తథా తత్ర వర్తేథాః అథాభ్యాఖ్యాతేషు ಏತತ್ರ ಬ್ರಾಹ್ಮಣಾಃ ಸಂಹರ್ಷಿಣಃ ಯುಕ್ತಾಃ ಯುಕ್ತಾಃ ಅಲೋಕ್ಷಾ ಧರ್ಮಕಾಮಾ ಸ್ಯುಃ ಯಥಾ ತೇ ತೇಷು ವರ್ತೇರನ್ ತಥಾ ತೇಷು ವರ್ತೇತಾಃ ಏಷ ಆದೇಶಃ ಏಷ ಉಪದೇಶಃ ಏಷಾ ವೇದೋಪನಿಷತ್ ಏತದನುಶಾಸನಂ ಏವಮುಪಾಸಿತವ್ಯಂ ಏವಮುಚೈತದುಪಾಸ್ಯಂ ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯಃ ಪರಿಪಾಲಯಂತಾಂ ನ್ಯಾಯೇನ ಮಾರ್ಗೇಣ ಮಹೀಂ ಮಹಿಷಾಃ ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ಶುಭಮಸ್ತು ನಿತ್ಯಂ ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಓ